इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रपति पदासीनया द्रौपदी मुर्मू वर्यया एम्स संकायं प्रति आग्रहः कृतः यत् तेन मानसिक स्वास्थ्य विषये जागरूकता अभियानम् आरम्भं करणीयम्, येन जनाः अस्य रोगस्य विषये जागरूकाः भवेयुः। गतसायं नवदिल्ल्याम् अखिल भारतीय चिकित्सा विज्ञान संस्थानस्य 49वें दीक्षांत समारोहे सम्बोधयन्त्या मुर्मूवर्यया प्रोक्तं यत् अद्य जगति भावनात्मक स्वास्थ्य विषयाः गभीराणि समाह्वानानि जनयन्ति। अन्यस्मिन् कार्यक्रमे राष्ट्रपतिः मुर्मू प्रोक्तवती यत् वञ्चितवर्गं प्रति संवेदनशीलता कस्यापि देशस्य समाजस्य वा प्रतिष्ठां निर्धारयति। गतसायं राष्ट्रपतिभवने पर्पल फेस्ट इत्यस्य आयोजनं सम्बोधयन्त्या राष्ट्रपतिः अवदत् यत् करुणा, समावेशिता, सामञ्जस्यं च भारतीय संस्कृतेः सभ्यतायाः च मूल्यानि अभवन्। पर्पल उत्सवस्य उद्देश्यं दिव्यांगतायाः विषये जागरूकतां जनयितुं जनानां जीवने तेषां प्रभावस्य च विषये अस्ति, तथा च समाजे दिव्यांगानां अवगमनं, समावेशं, प्रवर्धनं च अस्ति। गृहमन्त्री अमितशाहः उक्तवान् नरेन्द्रमोदी प्रशासनेन विगतेषु 10 वर्षेषु राजनीतिक इच्छाशक्त्या प्रौद्योगिक्याः च उपयोगेन राष्ट्रस्य सुरक्षा सुदृढा जाता। ह्यः राज्यसभायां गृहमन्त्रालयस्य कार्याणां विषये चर्चायाः उत्तरं ददता मन्त्रिणा एनडीए सर्वकारस्य आतंकवादं प्रति शून्य सहिष्णुता नीतिः इति प्रकाशिता। सः प्रतिपादितवान् यत् जम्मूकश्मीरे आतंकवादः, वामपक्षीय उग्रवादः, पूर्वोत्तरे उग्रवादः च पूर्वं देशस्य त्रीणि प्रमुखानि समाह्वानानि आसन्, येन तस्य प्रगतिः, विकासः च बाधिता आसीत्। गृहमन्त्रिणा उक्तं यत् आगामिवर्षस्य मार्चमासं यावत् भारतात् नक्सलवादस्य उन्मूलनं भविष्यतीति। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः उक्तवान् यत् डिजिटल कृषि अभियानस्य अन्तर्गतं देशस्य प्रत्येकस्य कृषकस्य डिजिटल परिचयपत्रं प्रदत्तं भविष्यति। 25-2000-26-2000-तमवर्षयोः स्वमन्त्रालय सम्बद्धानुदान याचिकासु विषये लोकसभायां चर्चायाः उत्तरं ददता श्रीचौहानेन उक्तं यत् अस्योपक्रमस्य माध्यमेन कृषकाः विविध सर्वकारीय योजनानां लाभं प्राप्तुं शक्नुवन्ति। युक्रेन रूस संघर्षयोः भारतस्य स्थितिः सुप्रसिद्धा स्पष्टा चेति सर्वकारेण उक्तम्। तत्र उक्तं यत् भारतं सर्वदा द्वन्द्वस्य स्थायि निराकरणाय द्वयोः पक्षयोः अन्येषां च प्रमुखहितधारकाणां मध्ये संवादस्य, कूटनीतेः च माध्यमेन व्यावहारिक संलग्नतायाः पक्षे आसीत्। गतसायं नवदिल्ल्यां वार्ताहरैः सह चर्चायां विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयशवालः अवदत् यत् भारतं द्वन्द्वस्य उभौ पक्षौ समेत्य अन्यैः हितधारकैः सह वार्तालापः अस्य बृहत्तरस्य दृष्टिकोणस्य अनुरूपः एव आसीत्। 25-2000-तमवर्षस्य आईपीएल इति इण्डियन् प्रीमियर् लीग् क्रिकेट् स्पर्धा मालिकायाः 18तमस्य संस्करणस्य आरम्भः अद्य भविष्यति। स्पर्धायाः औद्घाटनिक द्वन्द्वे अद्य सायं कोलकाता नगरस्य प्रतिष्ठिते ईडेन गार्डन्स क्रीडांगणे गतविजेता कोलकाता नाइट राइडर्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखी करिष्यति। भारतीय मानक समयानुसारी स्पर्धायाः आरम्भः सायं 7:30 भविष्यति। बहुप्रतीक्षितस्य संघर्षात् पूर्वं सायंकाले एकस्य उद्घाटन समारोहस्यापि आयोजनं भविष्यति। 74 द्वन्द्वेषु 10 दलानि स्पर्धां करिष्यन्ति। इति वार्ताः।